इतीदं परमं गुह्यं तुलस्या कवचामृतं मत्यानामृताधाया भीतानामभयाय च मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत वस्याय वस्य कामानां विद्यायै वेदवेदिनां द्रविणाय दरिद्राणां पापिनां पापशान्तये अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छिता यशस्यं यशः कामानां पुत्रदं पुत्रकांक्षिणां राज्याय भ्रष्टराज्यानामास्तानां च शान्तये भक्त्यर्थं विष्णुभक्तानां विष्णो सर्वान्तरात्मनि जाप्यं त्रिवर्गसिद्धिर्थं गृहस्थेनाविशेषतः उद्यन्तं चण्डकिरणमुपस्ताया कृताज्ञलिः तुलसीकानने तिष्ठन्नासिनो वाजपेदिदं सर्वान् कामानवाप्नोति तथैव मम सन्निधं मम प्रियकरं सत्यं हरिभक्तिविवर्धनम् यस्या स्मृता प्रजा नारी तस्या अंगं प्रमाचयेत् सा पुत्रं लभते दीर्घजीवनं चाप्यरोगिणं वन्ध्याय माजयेदंगं कुसैर्मन्त्रेण साधकः सापि संवत्सराधा गर्भं धत्ते मनोहरम् अस्वत्थे राजवस्याधी जपेदघ्ने सरूपभाक् पलाशमूले विद्याधी तेजोऽर्ध्यभिमुखिरवेः कन्यादी चण्डिकागेः शत्रुहंत्यै गृहे मम
श्रीकामो विष्णुगेः च उद्याने स्त्रीवशा भवेत् किमत्र बहुनोक्तेन शृणु सैन्ये सतत्वतः यं यं काममभिध्याये तं तं प्रक्नोप्त्यसञ्चयं मम गेहगतस्त्वन्तु तारकस्य नधेश्चया जपं स्तोत्रं च कवचं तुलसीगतमानसः मण्डलातारकं हन्ता भविष्यपि न संशयः।